नमस्कारः सर्वेषां, पुनः नूतनन्यायवर्गे सर्वेषां स्वागतम्. एतावत् पर्यन्तं न्यायशास्त्रस्य परिचयं प्राप्य वयं कांश्चन सिद्धान्तान् अधीतवन्तः न्यायशास्त्रे. प्रथमतया अस्माभिः दृष्टमासीत् यत् न्यायशास्त्रे सप्तपदार्थाः सन्ति, नाम जगति यावन्ति वस्तूनि सन्ति तेषां श्रेणीकरणं क्रियते नैयायिकैः. अस्तु, तर्हि तानि सर्वाणि वस्तूनि सप्तपदार्थेषु अन्तर्भूताः भवन्ति इति. ते च सप्तपदार्थाः सन्ति: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. इति न्यायशास्त्रस्य मूलसिद्धान्तः अयम्. अस्तु, जगति यावन्ति वस्तूनि सन्ति ते सप्तपदार्थेषु विभजिताः. तर्हि सप्तपदार्थाः सर्वेषां मनसि भवेयुः इति कृत्वा पुनः वदामि: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. तर्हि
अत्र कर्म इति पदस्य लिङ्गं किम्? तत्र विसर्गः नास्ति, अपि च आकारः अपि नास्ति. तत्र कर्म इति पुल्लिङ्ग श्रीलिङ्ग वा नपुंसकलिङ्गशब्दः?
अस्तु, मेहला महोदय शृणोति वा अधुना?
आम् आम् महोदय.
कर्मन् इति महोदय नकारान्तप्रातिपदिकम्.
अस्तु अस्तु, कर्म.
तर्हि नपुंसकलिङ्गशब्दः कर्म इति नपुंसकलिङ्गशब्दः नकारान्तप्रातिपदिकमस्ति. कर्म कर्म कर्मणि कर्माणि इति भवति.
अस्तु, धन्यवादः.
हा, समीचीनं. तर्हि अस्तु, तद् सप्तपदार्थान् दृष्ट्वा आधाराधेयव्यवस्था आधाराधेयभावव्यवस्थापनविषये वयं दृष्टवन्तः. तत्र षष्ठे पुटे पश्यन्तु, तत्र षष्ठे पुटे पेज् 6 इति पश्यन्तु. तत्र झटिति एकवारं कानिचन वाक्यानि उक्त्वा अग्रे सरेम. अस्माभिः ज्ञायते यत् द्रव्यं सर्वेषाम् आश्रयः. इत्युक्ते सर्वे पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति इति अस्माभिः ज्ञायते. नाम द्रव्ये गुणः वर्तते, द्रव्ये कर्म वर्तते, द्रव्ये सामान्यं वर्तते, द्रव्ये विशेषः, द्रव्ये समवायः, द्रव्ये अभावः इति. इमे सर्वे पदार्थाः द्रव्ये वर्तते, अपि च द्रव्ये स्वयं द्रव्यमपि भवति इति वार्ता. तस्य निरूपणार्थं नाम द्रव्यं सर्वदा अधिकरणम् अपि च गुणः आधेयः इत्यस्य निरूपणार्थं निष्ठवान् आश्रयः इत्येषां पदानां प्रयोगः भवति न्यायशास्त्रे, किल इति अस्माभिः दृष्टम्. तर्हि षष्ठे पुटे एकं चित्रमस्ति खलु, तत्र द्रव्यम् अपि च गुणः इति, तयोः मध्ये स विद्या भगिनी किञ्चित् वदति वा? तत्र
द्रव्यम् अपि च गुणः खलु, तत्र श्रूयते वा?
वन् मिनिट् भगिनि, विजया हेतिराजन् भगिनी इति, केन् यु प्लीस् म्यूट् यर्सेल्फ्, ऐ विल् काल् औट् वेन् यु आर् काल्ड् औट्, प्लीस् यु केन्
हा. अत्र द्रव्यं गुणः इति अस्ति, द्रव्यं द्रव्ये गुणः अस्ति, द्रव्यम् एव अधिकरणं, गुणः आदेयः. तर्हि अत्र वाक्यं भवति द्रव्यनिष्ठ अधिकरणतानिरूपित गुणनिष्ठ आदेयता इति एकं वाक्यम्. अपि च गुणनिष्ठ आदेयतानिरूपितद्रव्यनिष्ठ अधिकरणता इति अपि द्वितीयं वाक्यमस्ति.
हा, बहु समीचीनमस्ति भगिनि. तर्हि अधुना विद्या भगिनि अधेयता अपि च अधिकरणता एतेषां निरूपणं कृतवती. तस्मिन् उदाहरणे भगिनि ससम्बन्धिकौ पदार्थौ कौ?
अधिकरणता अपि च आदेयता ससम्बन्धिकपदार्थौ.
किमर्थम्?
यदि वयम् अधिकरणता इति वदामः चेत् तत्र सर्वदा अपेक्षा भवति कस्य अधिकरणता इति. तत्र आदेयतायाः निरूपणं भवति अधिकरणता इत्यनेन. अतः तत्र ससम्बन्धिकाः सर्वदा तत्र साकाङ्क्षा अस्ति. तत्र आदेयता इति वदामः चेत् तत्र कस्य आदेयता इति प्रश्नः उदेति. अतः द्वयोः तत्र निरूपकनिरूप्य सम्बन्धः अस्ति. तर्हि अधिकरणतायाः निरूपणम् आदेयता करोति, आदेयतायाः निरूपणम् अधिकरणं करोति.
अधिकरणता करोति, सम्यक् इति एव वार्ता अस्ति. तदर्थम् अस्माभिः निष्ठ आश्रयवान् इत्यादिकं परिशीलितम्. अस्तु, इतोपि एकम् उदाहरणं कृत्वा अग्रे सरेम. वसुप्रभा भगिनी वक्तुम्
भगिनी, मम अहं शशिकिरणः. अत्र मम एकः प्रश्नः अस्ति तस्मिन् विषये. इदानीं उक्तवती आधेयता अधिकरणतायाः निरूपकं करोति, अनन्तरम् अधिकरणता अपि आधेयतायाः निरूपणं करोति इति. इत्युक्ते द्वयोः अपि सम्बन्धः अस्ति इति, निरूपकभावः खलु. अत्र यदा यथा वयं पूर्वं दृष्टवन्तः यज्ञतपः अनन्तरम् आसनस्य उदाहरणे, द्वयोः अत्र यज्ञदत्तः एकाकी एव आसनं विना अपि स्थातुं शक्नोति, अनन्तरम् आसनमपि यज्ञदत्तं विना अपि स्थातुं शक्नोति. इत्युक्ते अत्र आकाङ्क्षाभावः कस्य अस्ति कस्य नास्ति इति किञ्चित् वक्तुं शक्नोति वा?
भवान् एव चिन्तनं करोतु. उपरितनचित्रं पश्यतु, तत्र आसनं निष्ठा अधिकरणता इति अस्ति खलु. हा, तत्र भवान् निरूपणं करोतु आधेयतायाः, प्रयत्नं करोतु. षष्ठे पुटे आसननिष्ठा इत्यस्मात् आरभ्य निरूपणं करोतु. अस्तु, एकनिमिषः महोदय, एकनिमिषः. नूतनतया केन केन आगतं?
श्रीवल्ली.
ओ अस्तु, श्रीवल्ली भगिनी समीचीनं. तदनन्तरं अजितमहोदय अस्ति. अस्तु, नमस्कारः महोदय. तर्हि शशिकिरणमहोदय, भवान् आसनं निष्ठा अधिकरणता इति चित्रमस्ति खलु, तस्य निरूपणं करोतु किञ्चित्.
आसननिष्ठ अधिकरणता निरूपित आधेयवान् यज्ञदत्तः.
आधेयतावान् यज्ञदत्तः.
क्षम्यताम्, आधेयतावान् यज्ञदत्तः.
हा, अधुना यथा विद्या भगिनी कृतवती तथा. कृपया म्यूट् करो, एकनिमिषं महोदय, म्यूट् कुर्वन्तु यदि न वदन्ति कृपया. समीचीनं, तर्हि हा, यज्ञदत्त आधेयतावान् यज्ञदत्तः, यज्ञदत्तस्य निरूपणं जातम् इति सत्यमेव. परन्तु यथा विद्या भगिनी कृतवती, विद्या भगिनी आधेयतायाः निरूपणं कृतवती खलु.
आमां, तदपि करोमि. आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता.
इति अस्ति. अधुना भवान् वदतु श्रीवल्ली भगिनी पेज् 6 इति पुनरावर्तनम्. अस्तु, सा चाट् प्रेषितवती. तर्हि आसननिष्ठ अधिकरणता निरूपित अधेयता इति आगच्छति किल महोदय. निरूपित इति शब्दस्य उभयोः भागयोः पार्श्वे के पदे स्तः?
अधिकरणता अनन्तरम् आधेयता.
हा, निरूपिता इति शब्दस्य परितः के पदे स्तः अथवा कौ शब्दौ स्तः इति द्रष्टव्यं. तयोः मध्ये एव ससम्बन्धिकता अस्ति. तौ एव ससम्बन्धिकौ. यद्यपि भवान् अन्ततो गत्वा यज्ञदत्तस्य निरूपणं कर्तुं शक्नोति, तथापि अधिकरणता निरूपित अधेयता इति एव आगच्छति, न तु अधिकरणता निरूपित यज्ञदत्तः.
आम्, अत्र अवगतम्. अत्र चतुर्थे पुटे अपि अत्रापि एकं वाक्यं दत्तम् अस्ति अन्ते, एतद् विपरीतं यज्ञदत्तः अस्ति इत्युक्तौ कस्य इति. आकाङ्क्षा न सर्वदा भवति, अतः यज्ञदत्तः निराकाङ्क्षः इति.
इति सत्यमेव, तदेव अहम् अधुना निरूपितवती यत् यदि यज्ञदत्तः आसने अस्ति तदा आसनयज्ञदत्तयोः सम्बन्धः वर्तते किल, आधारादेय माध्यमेन वर्तते, नो चेत् न. भवान् अपि अधुना निरूपितवान्, निरूपित इत्यनेन अधिकरणता अधेयता तयोः एव सम्बन्धः प्रदर्श्यते, न तु यज्ञदत्तस्य आसनेन सह. यावत्पर्यन्तं यज्ञदत्तः आसने न भवति तावत्पर्यन्तं सः ससम्बन्धिकः नास्ति. अपि च यज्ञदत्तः ससम्बन्धिकः नास्ति एव वस्तुतः, यज्ञदत्ते विद्यमाना आधेयता ससम्बन्धिका अस्ति, तस्य सम्बन्धः आसननिष्ठ अधिकरणतया सह इति. तदर्थं तथा उक्तं, फुट्नोट् इति वदति खलु चतुर्थे पुटे.
आमाम् तथा एव, इत्युक्ते यज्ञदत्तः अनन्तरम् आसनं द्वयोः अपि एकाकी एव स्थातुं शक्नुवन्ति. यज्ञदत्तः आसनस्य उपरि उपविशति, अधिकरणतायाः सम्बन्धः भवति इति अर्थः.
सत्यम्.
अस्तु, इदानीम् अवगतं, धन्यवादः भगिनि.
यज्ञदत्तः केवलम् उदाहरणम्, अस्माकं वस्तुस्थितिः तु द्रव्यगुण द्रव्यकर्म इत्येषाम्.
आमामाम् अवश्यम्.
अस्तु, सम्यक्. अस्तु, वसुप्रदा भगिनी इतोपि एकम् उदाहरणं करोतु, तदा अग्रे सरेम. द्रव्ये कर्म अस्ति खलु भगिनि, इति निरूपणं करोति वा? द्रव्ये
द्रव्यं पृथ्वी गुणं गन्धः इत्युक्ते.
एकनिमिषः भगिनी, 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 एकनिमिषः. षष्ठपुटं प्रति आगच्छतु, तत्र द्रव्ये कर्म अस्ति इति जानीमः किल.
अस्तु भगिनि,
द्रव्ये कर्म अस्ति, तर्हि निरूपणं करोतु, द्रव्यनिष्ठ अधिकरणता निरूपित इत्यादिकं कृत्वा.
द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठा अधेयता.
हा, गुणस्य स्थले कर्म स्थापयतु, कर्म इति स्थापयतु.
द्रव्यनिष्ठ अधिकरणता निरूपित कर्मनिष्ठ अधेयता.
हा, बहु समीचीनं भगिनि. अस्तु, विपरीतदिशि.
कर्मनिष्ठ अधेयता निरूपित द्रव्यनिष्ठ अधिकरणता.
हा, बहु सम्यक् अस्ति, सम्यक् इति आधाराधेयभावव्यवस्थापनस्य किञ्चित् पुनरावर्तनं जातम्. अस्तु, इतः अग्रे गत्वा सप्तमपुट पश्यन्तु सर्वे. अस्माभिः तत्र वयं तु अधुना उद्देशग्रन्थे स्मः, उद्देशविभागे स्मः. उद्देशभागः अथवा उद्देशग्रन्थः इत्युक्ते सः भागः यस्मिन् नाम्ना सङ्कीर्तनम् अथवा नाम्ना निर्देशः क्रियते पदार्थानां, तावदेव, अन्यत् किमपि नास्ति उद्देशभागे. अस्तु, सप्तपदार्थाः इति उक्त्वा सप्तपदार्थानां नामानि, नवद्रव्याणि इति उक्त्वा नवद्रव्याणां नामानि, तावदेव भवति उद्देशग्रन्थे यं वयम् अधुना पठन्तः स्मः. तर्हि सप्तमे पुटे द्रव्यस्य निर्देशः जातः अस्ति. रविमहोदय पठति वा तद्वाक्यम्? सप्तमे पुटे द्रव्यस्य निर्देशः क्रियते खलु तत्र.
चित्रे
नास्ति महोदय, सप्तमे पुटे पश्यति वा तत्र द्रव्याणि इति.
तत्र द्रव्याणि पृथ्वी पृथ्वी तेजो वायु आकाश काल दिक् आत्ममनांसि नवैव इति. ततः गुणान् विभज्यते.
हा हा, इति वयं पठितवन्तः महोदय, केवलं पुनरावर्तनार्थं. तत्र द्रव्याणि नवद्रव्याणि वदतु.
तत्र द्रव्यस्य विभागः लिखित अस्ति. पृथ्वी आप तेज वायु आकाश काल दिक् आत्म मनांसि च इति नवद्रव्याणि.
हा, बहु समीचीनमस्ति महोदय, इति नवद्रव्याणि इति द्रव्याणां नाम्ना सङ्केतनं जातम् इति वयं गतवर्गे दृष्टवन्तः. पृथ्वी अप् अप् इत्युक्ते जलं, प्रातिपदिकमस्ति अप् इति. पृथ्वी अप् तेजो वायु वायुवाकाश काल दिगात्मा मनांसि नवैव इति नवद्रव्याणि. सम्यक्, अस्तु. इतः अग्रे गत्वा तथैव गुणानामपि निर्देशः जातः. सङ्गीताभगिनी पठति वा गुणानां निर्देशः, तद् निर्देशवाक्यम्?
अस्तु अस्तु भगिनि. रूप रस गन्ध स्पर्श संख्या परिमाण कृतत्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः चतुर्विंशति गुण विंशतिः गुणाः इति.
बहु समीचीनं. तर्हि न्यायशास्त्रे नवद्रव्याणि चतुर्विंशतिगुणाः, रूपम् इत्यस्मात् आरभ्य ये ये गुणाः पठिताः भगिन्या, तानि ते सर्वे चतुर्विंशतिगुणाः इति अस्ति. सम्यक्. ततः अग्रे गत्वा कर्मणः अपि नाम्ना निर्देशं वयं दृष्टवन्तः. तर्हि तद्वाक्यं जगन्नाथमहोदय पठति वा?
अस्तु. केचन तत्र गुणान् विभजते. रूपरसगन्धस्पर्शसङ्ख्या परिमाणकृतत्वसंयोगविभाग परत्व अपरत्व गुरुत्व द्रव्यत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म धर्म संस्काराः चतुर्विंशतिगुणाः इति.
तद् जातं महोदय, केवलं कर्म इत्यस्य विषये वदतु. तद् समीचीनमासीत्, इतोपि एकवारम् अभ्यासः इति, किन्तु कर्म इत्यस्य वाक्यं पठतु.
कर्म इत्यस्य वाक्यं
स्थूलाक्षरैः यद् लिखितं तद्
कुत्र अस्ति? केचन दार्शनिका कर्म इति पदार्थं नाङ्गीकुर्वन्ति इति वा?
तद् तज्जातं महोदय. स्थूलाक्षरे नाम्ना अत्र वयं किं कुर्वन्तः स्मः? नाम्ना निर्देशं कुर्वन्तः स्मः खलु, उद्देशभागे.
ओ, तथा कर्मक्रियानिर्दिष्ट उत्प्रेक्षणादिग्रन्थेन इति वा?
सत्यं. तद्वाक्यं पठतु.
ततः कर्मक्रियानिर्दिष्ट उत्प्रेक्षण आदिग्रन्थेन. सो उत्प्रेक्षण इति कश्चिद् उद्दिश्य ग्रन्थः अस्ति.
उत्क्षेपण.
हा, तदेव अहम् उक्तवान् इति चिन्तितवान्. अस्तु, उत्क्षेपण उत्क्षेपणम् उत्क्षेपणम् इति ग्रन्थे निर्दिष्टम् अस्ति. तत्र अन्यग्रन्थेषु तादृशं निर्दिशति. तेषाम् उत्क्षेपणादि इति लिखितम् अस्ति.
इत्युक्ते यथा 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 द्रव्यम् अपि च यथा गुणः निर्दिष्टाः, तद्वत् उत्क्षेपणादिग्रन्थेन. ग्रन्थः इत्युक्ते वाक्यस्य समूहः इति मनसि भवेत्. वारं वारं वयं ग्रन्थः ग्रन्थः इति यदा पश्येम, उत्क्षेपणमिति ग्रन्थः नास्ति, केवलं वाक्यानां समूहः. नाम्ना निर्देशः भवतु अथवा लक्षणभागे यत्किमपि भवतु, तद् ग्रन्थः ग्रन्थः इति वारं वारं ते वदन्ति. तादृशभाषाशैली अस्ति न्यायशास्त्रे. अस्तु, केवलम् एतद् वदति यत् अत्र द्रव्याणां जातं, गुणानां निर्देशः जातः, अधुना क्रियायाः निर्देशः इति स्थूलाक्षरे यद्वाक्यमस्ति तद् वदतु.
उत्क्षेपण अपक्षेपण अकुञ्चन प्रसारण गमनानि पञ्चकर्माणि. तर्हि कर्मस्य पञ्चविभागाः सन्ति, तेषां नामकरणं सन्ति.
उत्क्षेपणम् अपक्षेपणम् अकुञ्चनं प्रसारणं गमनम् इति गमनम् इति पञ्चकर्म इत्यादि पञ्चकर्माणि सन्ति.
हा बहु समीचीनमस्ति महोदय. तर्हि नवद्रव्याणि चतुर्विंशतिगुणाः पञ्चकर्माणि इति नाम्ना निर्देशः जातः. उत्क्षेपणम् इति जानीमः, उपरि क्षेपणम्, अपक्षेपणम्, अधः क्षेपणम्, आकुञ्चनम् इत्युक्ते अट्राक्षन् आकर्षणं, प्रसारणम् इत्युक्ते स्वतः दूरं प्रेषणं कस्यचित् वस्तुनः, गमनं तु जानीमः. तर्हि केवलं पञ्चकर्माणि इति न, वदतु महोदय.
अस्तु, उत्क्षेपणम् अपक्षेपणम् इत्युक्ते अट्राक्षन् रिपेलिङ्ग् वा?
उत्क्षेपणं तु जानाति खलु, क्षिपति.
ओ अस्तु अस्तु, तर्हि उपरि गच्छति तद्
उपरि क्षेपणम्, अधः क्षेपणम्, अपक्षेपणम्. आकुञ्चनम् इति आकर्षणम्.
आकुञ्चनम् इति आकर्षणं वा?
सत्यं. पार्श्वे नयनं तथा आकुञ्चनं. प्रसारणं तु जानीमः, प्रसारणं.
क्षम्यताम्, आकुञ्चनम् इत्युक्ते बेण्डिङ्ग् न वा?
न भगिनि. अस्तु
भगिनि,
यत्किमपि भवतु
भगिनि, एकनिमिषम् एकः सन्देहः. आकुञ्चनं वा काण्ट्राक्षन् वा अथवा आकर्षणं वा?
आकुञ्चनम् एकनिमिषः. हा, सङ्कोचः इत्युक्ते काण्ट्राक्षन् इत्यस्मिन् अर्थे अस्ति खलु महोदय?
पार्डन्, ऐ एम् नाट् वेरि क्लियर् मा.
हा, आकुञ्चनम् इति तथा अस्ति, सङ्कोचः इत्युक्ते काण्ट्राक्षन् महोदय. आकुञ्चनं प्रायः पार्श्वे नयनं तथा आ इति उपसर्गेण.
धन्यवादः.
अस्तु अस्तु, इति पञ्चकर्माणि. पञ्चकर्मसु पञ्च एव कर्माणि इति न, केवलं कर्मणां प्रतिनिधिरूपेण पञ्चकर्माणि तत्र दर्शितानि. अस्तु, इतः अग्रे गत्वा लिखितमस्ति, सर्वे गुणादयः द्रव्ये वर्तन्ते इति पश्यन्ति वा? एकं वाक्यमस्ति, सर्वे गुणादयः द्रव्ये वर्तन्ते इति उक्तं. यतोहि गुणा कर्म सामान्यं विशेषः समवायः अभावः तु अवश्यं द्रव्ये अस्ति. अस्तु, द्रव्यमपि द्रव्ये अस्ति, परन्तु केचन कानिचन द्रव्याणि नित्यद्रव्याणि इति उच्यते. आकाशः, कालः, दिगात्मा, मनः नित्यद्रव्याणि. पृथिवी, जलं, तेजः, वायुः अनित्यद्रव्याणि. तेषु ते जातानि भवन्ति, नष्टानि भवन्ति, परन्तु आकाशः, कालः, दिगात्मा, मनांसि नित्यद्रव्याणि, तेषां नाशः न भवति. अपि च आकाशः, कालः, दिगात्मा विभुद्रव्याणि इति उच्यते. विभुः इत्युक्ते सर्वत्र अस्ति इति एकः अर्थः. अपि च तेषु क्रिया अपि नास्ति, विभुद्रव्याणि तादृशानि. विभुद्रव्याणि कस्यचिदपि आश्रयः अथवा कस्मिंश्चिदपि न भवति. अस्तु, तर्हि द्रव्ये द्रव्यं वर्तते इत्युक्ते पृथिव्यां पृथ्वी वर्तते, पृथिव्यां जलं वर्तते अथवा जले पृथ्वी वर्तते, तत् सर्वं सत्यं. परन्तु आकाशे किमपि न वर्तते. अस्तु, तादृशभेदः अस्ति, अग्रे गत्वा इतोपि ज्ञास्यामः. अतः सर्वे गुणादयः द्रव्ये वर्तन्ते इति उक्तं, यतोहि कानिचन द्रव्याणि अपरेषु द्रव्येषु न वर्तन्ते. अस्तु, इति स्पष्टीकरणीयम् आसीत्.
क्षम्यतां भगिनि, अत्र मनः नित्यं वा अनित्यं वा?
नित्यद्रव्यं भगिनि.
ओ, नित्यद्रव्यम्. अस्तु,
पञ्चनित्यद्रव्याणि आकाशः, कालः, दिगात्मा, मनः इति. अस्तु, परन्तु मनः विभुः नास्ति, आकाशः, कालः, दिगात्मा विभुः भवेत्.
द्वयोः भेदः कः? नित्यं विभुः नास्ति वा?
नित्यम् इति कालसम्बद्धं, सर्वदा नाशः न भवति, जननं न भवति, नाशः न भवति इति कालसम्बद्धम् अस्ति नित्यम् इति खलु. विभुः इत्युक्ते सर्वानुस्यूतः इति, सर्वत्र अस्ति इति एकम्. अपि च एतदपि पश्यामः यत् विभुद्रव्येषु क्रिया न भवति. कर्म इति द्रव्ये अस्ति इति वदामः खलु, तद् विभुद्रव्येषु न भवति.
ओ, यतोहि मनसि क्रिया अस्ति इति कृत्वा विभु नास्ति वा?
सत्यम्.
ओ अस्तु,
मनसि क्रिया अस्ति एव. अस्तु, सम्यक्. तर्हि अधुना सामान्यम् इत्यस्य निरूपणप्रसङ्गे वयं स्मः. एकनिमिषः. श्रीवल्ली भगिनी, पेज् प्राप्तं वा? अधुना वयं 9 इत्यस्मिन् पृष्ठसङ्ख्या 9 इत्यस्मिन् स्मः.
आम्.
अस्तु, समीचीनं भगिनि. राधिका भगिनी, सामान्यपदार्थनिरूपणम् इति अस्ति खलु 9 पुटे?
आम्.
हा, तस्य अस्तु, तस्मात् उपरि एकः परिच्छेदः अस्ति, द्रव्ये वर्तन्ते इत्यत्र, तद् पठतु कृपया.
द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णेन च इदम् आयाति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदायः यथा निरूपितः तथा गुणत्वसामान्यम् आदाय गुणसमुदायः सामान्यम् आदाय कर्मसमुदायः निरूपयितुं शक्यते.
किञ्चित् प्रतिपादयतु भगिनि.
आम्, अत्र किं दत्तवन्तः इत्युक्ते, सामान्यम् इति पश्यामः चेत् तत्र, क्षम्यतां भगिनि, एकः निमिषः.
वाक्यशः पठित्वा प्रतिपादयितुं शक्नोति भगिनि, चिन्ता नास्ति. वाक्यं पठित्वा प्रतिपादयतु.
द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णेन च इदम् आयाति. द्रव्ये किं किम् अस्ति इति पश्यामश्चेत् सर्वाः पदार्थाः द्रव्ये सन्ति खलु?
सत्यम्.
तादृशं पश्यामश्चेत् यदि गुणे सामान्यसमवाय अभावः अस्ति, यदि वयं जानीमः द्रव्ये द्रव्यम् अस्ति इति, समानरूपेण गुणे गुणं न भविष्यति. गुणे सामान्यं समवाय अभावः त्रयः एव वर्तते इति.
हा, तद्वदेव कर्मणि सामान्ये इति यथा यथं पदार्थाः सन्ति. अस्तु, किन्तु अस्माकम् अधुना विषयः भवति सामान्यम् इति, तस्य विषये किञ्चित् पूर्वभूमिकारूपेण अत्र उक्तं. किम् उक्तं? द्वितीयवाक्यं पठतु परिच्छेदस्य.
द्वितीयवाक्यमस्ति, तथा च सामान्ये द्रव्यं गुणः कर्म
नवमपुटे भवत्याः परिच्छेदे द्वितीयवाक्यं.
तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय
तस्मात् उपरि सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते इति खलु? इत्येव उक्तं पूर्वभूमिकरूपेण. सामान्यम् इति कुत्र कुत्र वर्तते भगिनि? चित्रे अपि प्रदर्शितम्.
सामान्यं तु द्रव्ये अस्ति, तदनन्तरं कर्मणि गुणे.
तर्हि त्रिषु वर्तते एव.
आम्,
तर्हि सामान्यस्य अधिकरणानि कानि?
सामान्यस्य अधिकरणानि इत्युक्ते, एकनिमिषः, समवायः अभावः वा?
न न, अधिकरणम् इत्युक्ते किम्?
अधिकरणम् इत्युक्ते कुत्र तिष्ठन्ति तादृशम्.
सत्यम्, आधारः एव अधिकरणं खलु? तर्हि अधुना भवती उत्तरं तु पठितवती, सामान्यं कुत्र वर्तते इति पठितवती, तदा इत्युक्ते द्रव्यगुणकर्मणि तदादाय अहं प्रश्नं पृच्छामि, सामान्यस्य अधिकरणानि कानि?
द्रव्यं गुणं कर्म इति.
द्रव्यं गुणः पुल्लिङ्गपदमस्ति, द्रव्यं गुणः कर्म. हा समीचीनम्. इति त्रीणि अधिकरणानि सामान्यस्य. अस्तु अस्तु भगिनि, समीचीनम्. अधिकरणानि निर्दिष्टवन्तः प्रथमं. हा अग्रे गच्छतु इदानीं. तत्र सर्वेषु
द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदायः यथा निरूपितः तथा गुणत्व सामान्यम् आदाय गुणसमुदायः कर्मत्वसामान्यमादाय कर्मसमुदायः निरूपयितुं शक्यते. यदा वयं सामान्यम् इति दृष्टवन्तः तादृशम् एव गुणत्वं वा अथवा कर्मत्वं वा दृष्ट्वा कर्मसमुदायः वा तादृशं वक्तुं शक्यते.
हा प्रथमतया द्रव्येषु गुणः वर्तते इति कृत्वा यस्मिन् गुणः तद् द्रव्यम् इति द्रव्यसमुदायः निर्मितः किल, तद्वदेव गुणत्वम् इति आदाय, गुणत्वम् इति स्वीकृत्य गुणसमुदायः निर्मितः. सामान्यम् इति किम् इति अग्रे गत्वा पश्येमः. सामान्यम् इति जातिः तावदेव, गुणत्वम् इति जातिः गुणे वर्तते, तां स्वीकृत्य गुणसमुदायः, कर्मत्वम् इति जातिः अथवा सामान्यं स्वीकृत्य कर्मसमुदायः इति आगतम्. उत्तम,
धन्यवादः.
अस्तु तर्हि अग्रे सरेम. विजि भगिनी वदति वा, विजि गोविन्दराजन् इति सामान्यपदार्थनिरूपणं.
भगिनी एकः प्रश्नः अस्ति.
विजि भगिनी किञ्चित् म्यूट् करोतु. हा विद्या भगिनी वदतु.
अत्र यत्र द्रव्यस्य निरूपणं भवति तत्र द्रव्ये गुणः अस्ति इति कृत्वा गुणमादाय द्रव्यस्य निरूपणम्. इदानीम् अत्र गुणे सामान्यत्वम् आदाय गुणस्य निरूपणं, परन्तु गुणे सामान्यमादाय इदानीम् एव भवती उक्तवती तत्र गुणसामान्यम् इत्युक्ते गुणत्वम् इति. द्वयोः साम्यं कथम् अत्र द्रव्ये गुणमादाय?
हा द्रव्ये गुणमादाय यद् वाक्यमेकम् आसीत्, यद् बहुषु वर्तते तमादाय पदार्थनिरूपणं भवति इति खलु. गुणः इति कश्चन पदार्थः बहुषु. नैयायिकाः किं कृतवन्तः? कथञ्चित् श्रेणीकरणं करणीयं खलु. तर्हि अस्तु, गुणः इति पदार्थः बहुषु वर्तते. अस्तु, यस्मिन् गुणः तद् द्रव्यम् इति एकं श्रेणीं निर्मितवन्तः. अस्तु तर्हि अधुना गुणः इति वक्तुम् इत्युक्ते द्रव्यम् इति वक्तुं तस्मिन् गुणः भवेत् इति नियमः आगतं किल. तर्हि गुणः इति वक्तुं किं कर्तुं शक्यते इति चिन्तयित्वा, गुणः इत्यस्मिन् कश्चन जातिः अथवा स्वभावः धर्मः वर्तेत गुणत्वम् इति, तत् स्वीकृत्य वदन्ति गुणः यस्मिन् गुणत्वं सः गुणः इति एकः पदार्थः, तद्वदेव कर्मस्थले अपि.
क्षम्यताम्, इत्युक्ते यत्र यत्र गुणः अस्ति तत्र गुणत्वम् अस्ति इति कृत्वा साम्यम् अस्ति. द्रव्ये गुणः अस्ति एवमेव गुणे गुणत्वम् अस्ति, अतः द्वयोः साम्यम् अस्ति इति वा?
द्वयोः साम्यम् इति न वक्तुं शक्नुमः, परन्तु अधुना श्रेणीकरणार्थं कथं क्रियते इति अत्र प्रदर्शितं तावदेव.
अस्तु,
कर्मणि कर्मत्वम् इति इतोपि किञ्चित् स्पष्टं भविष्यति अग्रे गत्वा. अस्तु,
धन्यवादः भगिनि.
अस्तु विजय गोविन्दराजन् भगिनि
पठामि. सामान्यपदार्थनिरूपणं, तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आदेयं सामान्यं निर्दिशति. सामान्यस्य त्रीणि अधिकरणानि इत्युक्ते द्रव्यं गुणकर्म.
बहु समीचीनं भगिनि.
आदाय त्रीणि अधिकरणानि निरूप्य आदेयं सामान्यं निर्दिशति.
एतावत् पर्यन्तम् अवगतम् इति भाति. आदेयः इति उपरि अस्ति खलु,
अधिकरणता अधः अस्ति.
तस्य अधिकरणानि त्रीणि. तस्य अधिकरणानि द्रव्यगुण
द्रव्यगुणकर्म अधिकरण इति अर्थः. सामान्यस्य अधिकरण अधिकरणानि द्रव्यं गुणः कर्मः. उपरि परस्परं चेति परमपरं चेति क्षम्यतां द्वितीयं सामान्यम् इति. यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति. अत्र परस्परं चेति द्विधं तथापि
यथा नवद्रव्याणि. भगिनी बहु डिस्टर्बेन्स् अस्ति भवत्याः लैन् मध्ये. अस्तु, प्रायः अन्ये पठेयुः. भगिनी किञ्चित् पश्यतु हा अस्मिन् सप्ताहे किम् अस्ति इति. परमपरं च इति द्विविधं सामान्यं. यथा नवद्रव्याणि चतुर्विंशतिगुणाः पञ्चकर्माणि तथा सामान्यं द्विविधमस्ति. परमपरं चेति द्विविधं सामान्यम् इति उक्त्वा सामान्यस्य निर्देशः क्रियते इति. तावदेव. अस्मिन् ग्रन्थे तु निर्देशः लक्षणविचारः नास्ति खलु.
अग्रे परं पठामि.
अस्तु, परिच्छेदं पठतु भगिनि. यद्यपि
तथापि सम्प्रदायरीत्या साधनाय इति तव्यम्. इत्थं च जातिसाधनमाहुः. न
अवगतं तावत्पर्यन्तं प्रयत्नं करोतु.
तथापि सम्प्रदायरीत्या सामान्यसाधनाय इति तव्यम्. सम्प्रदाय
प्रथमवाक्यं पठतु भगिनि.
यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति.
तस्य अर्थः अस्ति यद् उपरिष्टात् इत्यस्य न्यायशास्त्रे अनन्तरम् इति अर्थः. उपरि इति अर्थः नास्ति. तर्हि अत्र वदति यत् यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् नाम अनन्तरं सामान्यस्य लक्षणं वदति, तथापि अत्र सम्प्रदायरीत्या सामान्यं कथं निर्दिश्यते इत्यस्य अवगमनार्थम् अथवा सामान्यसाधनार्थं यतितव्यं, प्रयत्नः करणीयः. सम्प्रदायरीत्या सामान्यस्य निर्देशः एवं भवति, परमपरं चेति द्विविधं सामान्यम् इति. तर्कसङ्ग्रहस्य वाक्यमस्ति एतत्. सामान्यं द्विविधं, परं सामान्यम् अपरं सामान्यम् इति द्विविधम् अस्ति सामान्यम्. अस्तु, तस्य लक्षणं किमिति अग्रे उच्यते ग्रन्थकारेण. किन्तु सम्प्रदायरीत्या कथं सामान्यवर्णनं भवति इति अग्रिमभागः भवति. इत्थं च जातिसाधनमाहुः इति अस्ति खलु, तद्वाक्यं पश्यन्तु. जातिः इत्युक्ते सामान्यम् इति मनसि भवेत्. जातिसाधनम् इत्युक्ते सामान्यस्य साधनम्. आहुः इत्युक्ते वदन्ति. ब्रू इति धातुः, तस्य धात्वादेशः भूत्वा बहुवचने आहुः इति आगच्छति. ब्रू इति धातुः वदति इत्यस्मिन् अर्थे. तर्हि सम्प्रदायरीत्या जातिसाधनं वदन्ति. सम्प्रदायरीत्या सामान्यस्य साधनं वदन्ति इति वदति अत्र. सामान्यम् इत्युक्ते जातिः इति मनसि भवेत्. अपि च समानानां धर्मः सामान्यम् इति उच्यते. किमर्थम् इति अग्रे पश्येम. किञ्चित् अग्रे पठित्वा मनसि स्पष्टता स्यात्. स सुमित्रा भगिनी अग्रे पठति वा अधुना बाला माता बालं माता इति तस्मात् आरभ्य
भगिनि बालं माता गवाक्षात् कश्चन प्राणिनं प्रदर्श्य इयं गौः इयं गौः इति वदति तथैव तमेव बालमादाय पिता उद्यानं गच्छति मार्गे पूर्व भगिनी किञ्चित् साहाय्यं करोतु कथम् उच्चारणं करणीयम् इति
पूर्वदृष्टसदृशाकारं
पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इति वक्ति
केनचित् अधुना आगतं कृपया म्यूट् कुर्वन्तु प्लीस् म्यूट् इफ् देर् इस् एनी बेक्ग्रौण्ड् नाय्स् प्लीस् म्यूट् युर् सेल्फ् धन्यवादः अस्तु किम् अवगतं सुमित्रा भगिनी
माता वदति गवाक्षात् प्राणिनां सन्ति इति प्रदर्शयति गौः इति वदति बालं
गवाक्षः गवाक्षात् इत्युक्ते
गोशालायाम् इति अर्थः वा
विण्डो तावदेव गवाक्षः गवाक्षात् इत्युक्ते विण्डो इति
अस्तु अस्तु अवगच्छतु
वातायनं तथा
वातायनं ततः तमेव बालम् आदाय पिता उद्यानं गच्छति उद्यानम् इत्युक्ते गार्डन् इति अर्थः खलु
सत्यं
बालम् आदाय इत्युक्ते
आदाय इति आपूर्वकः दादातुः
अस्तु
ददाति इत्यस्मिन् अर्थे ददाति इत्युक्ते गिव् खलु यदा आदातुः आगच्छति तदा स्वीकृत्य इति भवति आदाय इत्युक्ते स्वीकृत्य
पिता बालं स्वीकृत्य उद्यानं गच्छति इति
सत्यं
मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति बालः वदति इयं गौः इति
गौः गोशब्दः तथा पूर्वदृष्ट अत्र किञ्चित् वक्तव्यमस्ति पूर्वदृष्टसदृशाकारं पूर्वं माता किमपि प्रदर्शितवती
तादृशं प्राणिनम् इति
हा माता गवाक्षात् कञ्चन प्राणिनं दर्शितवती पिता अधुना बालं स्वीकृत्य उद्यानं गतवान्
उद्याने प्रदर्शयति बालः वदति तादृशं प्राणिनम् इति
किन्तु समानप्राणी अस्ति वा माता मात्रा या यः प्राणी दर्शितः पित्रा समानप्राणी वा
आं समानप्राणिः एव खलु गौः
माता एकरीत्या समानं किन्तु एकमेव गौः वा इस् द सेम् कौ इति मम प्रश्नः खलु हा तर्हि माता एकं गां प्रदर्शितवती पिता अपरां गां प्रदर्शितवान् तथापि बालकः इयं गौः इति अभिज्ञातुं शक्तवान् किल हा भिन्नाः गाः तथापि इयं गौः इति वक्तुं शक्नोति तत्त्वदेव एकं बालकम् उद्दिश्य एकं पुस्तकं प्रदर्शयतु अस्तु अपरं पुस्तकम् इदं पुस्तकम् इति वदतु अपरं पुस्तकं दर्शयति चेदपि सः वदति इदमपि पुस्तकं किल किमर्थं तथा किमपि चिन्तनमस्ति वा
रूपं तादृशं परन्तु समानविषयः न तत्र सन्ति
हा वस्तुतः सर्वाणि वस्तूनि भिन्नानि न्यायशास्त्रे इदं पुस्तकम् भिन्नानि किन्तु किञ्चित् साम्यमपि अस्ति खलु तयोः तेषां मध्ये
विषयः कः
भिन्नमपि
पुस्तके इति भेदः अस्ति तत्र.
तर्हि एकदृष्ट्या समानानि, अपरया दृष्ट्या भिन्नानि. साम्यम् अथवा समानता कुत्र वर्तते इत्युक्ते तेषु विद्यमानधर्मः अस्ति पुस्तकत्वम् इति. अग्रे पश्येम कथं तद् निर्णीयते इति. एकदृष्ट्या समानानि, अपरया दृष्ट्या भिन्नभिन्नानि. समानानि इति उक्तं चेत् समानानां धर्मः सामान्यम् इति आगच्छति मनसि, भवेत् इयम् इदं वाक्यं. समानानां धर्मः सामान्यम् इति.
मम एकः प्रश्नः अस्ति. एतद् अस्माकं वर्गे सम्भाषणस्य अवगमनार्थं पृच्छामि. भवती उक्तवती एतत् समान गौः वा इति. तत्र तु समान, अत्र भवत्याः उद्देश्यम् आसीत् तदेव गौः वा इति भवत्याः प्रश्नस्य उद्देश्यः. किन्तु यदि समानगौः इति यद् यदा वयं वदामः तर्हि तत्र भिन्नत्वं भवितव्यम् इति अहं चिन्तितवान् सर्वदा. तदेव स्थाने समानम् इति वक्तुं न शक्यते इति मम अवगमनम्.
सत्यं महोदय, समीचीनमेव, न वक्तुं शक्यते. यतोहि समानानां धर्मः सामान्यम् इति वदामः चेत् समानाः एव गावः एकदृष्ट्या, खलु? अपरया दृष्ट्या भिन्नाः, यतोहि व्यक्तिभेदेन भिन्नाः. व्यक्तिभेदेन भिन्नाः इत्युक्ते प्रत्येकं गोः तत्र अवयवभेदाः सन्ति, भिन्नभिन्नपादाः, शृङ्गादयः, व्यक्तिभेदेन भिन्नाः किन्तु एकदृष्ट्या समानाः. तदर्थमेव समानानां धर्मः सामान्यम् इति उच्यते. सत्यं, प्रश्नः तु तदेव अस्ति वा इति प्रष्टव्यमासीत्, एकमेव इति वा इति प्रष्टव्यमासीत्. अस्तु, समीचीनं, तर्हि
धन्यवादः.
अग्रे का पठति? सरला भगिनी पठति वा अग्रे?
तत्र पूर्वं या गौ तेन दृष्ट्वा सा अन्या, इयं चान्या, सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्न, उभयोः अपि शृङ्गपादाय अवयवाः अपि परस्परं भिन्ना. तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्? तदेव शास्त्रकारैः सामान्यम् इति उच्यते. पूर्वं या गौः बालक दृष्टवान् या गां माता तां सङ्केतं कृतवती, सा अन्या गौ आसीत्. इदं यदि बालः पित्रा सह उद्यानं गतवान्, तत्र अन्या गां दृष्टवान्, सा कृष्णा आसीत्, इयं तु तस्याः वर्णः कृष्णा आसीत्. पूर्वं यः दृष्टवान् तस्याः वर्णः श्वेता आसीत्. अतः उभयोः रूपमपि भिन्न, द्वयोः गावौ रूपं भिन्न आसीत्. अतः कथं सः ज्ञातवान् एता गौ आसीत्? उभयोः अपि शृङ्गपादाय अवयवः. द्वौ गावौ शृङ्गा पादा अवयवः, तेषाम् अवयवः सन्ति, अपि परस्परं भिन्ना. किन्तु द्वौ गावौ द्वौ गवौः भिन्न अवयवः सन्ति, तर्हि किं दृष्ट्वा सः बालः गौ इयम् इति सम्यक् ज्ञातवान्? अत्र प्रश्न उदेति, किं द्वौ गवः मध्ये समानम् अस्ति तत् दृष्ट्वा बालः उक्तवान् इयं गौ आसीत् तदेव शास्त्रकारैः सामान्यम् इति उच्यते. यत्र किं द्वौ गवौ मध्ये समानम् अस्ति तत् तस्य नाम अस्ति सामान्यम् इति न्यायिकाः वदन्ति.
अन्ततो गत्वा समानानां धर्मः सामान्यम् इति आगच्छति. धर्मः, हा समीचीनं भगिनी, धन्यवादः. धर्मः इत्युक्ते स्वभावः. स्वभावः कस्यचित् वस्तुनः अन्तर्गतः स्वभावः यः भवति सः एव धर्मः. अत्र यथा भगिनी उक्तवती, भिन्ना गौः दृष्टा, अस्तु, गृहे गवाक्षात् उद्याने भिन्ना गौः दृष्टा, किन्तु साम्यं तु अस्ति तु उभयोः मध्ये. यद्यपि उभयोः रूपम् अथवा उभयोः शृङ्गमिति जानन्ति वा, तस्य शिरसः उपरि यदस्ति हार्न् इति शृङ्गमिति, तद् पादाः अवयवाः शरीरावयवाः भिन्नाः एव सन्ति, तथापि किञ्चित् साम्यमपि अस्ति. तत् साम्यमाधाय बालकः गाम् अभिज्ञातुं शक्तवान्, भिन्नां गाम् उद्याने अभिज्ञातुं शक्तवान्, इयं गौः इति वक्तुं शक्तवान्. कथम् इति चेत् तयोः मध्ये किञ्चित् साम्यम् अस्ति, तदेव सामान्यम् इति उच्यते. समानानां धर्मः अथवा स्वभावः सामान्यम्. उभयोः गवोः एकः स्वभावः अथवा धर्मः अस्ति, तदादाय सः वक्तुं शक्तवान् इति. कोऽपि प्रश्नः वा अत्र कस्यचित्? अस्तु, अग्रे गच्छेम तर्हि. सभ्यमहोदय अग्रे पठति वा?
आं भगिनि. आम्, अहम् एकविधा अवयवादिजन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते, अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः. एवञ्च गवाख्यात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति, मात्रा इयं गौः इत्युक्ते गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति. ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. गोशब्दं स्मृत्वा गौः इयमिति च वक्ति. हा, तर्हि वयं जानीमः समानानां धर्मः सामान्यम्. सामान्यं किमित्युक्ते समानानां धर्मः. धर्मः इत्युक्ते स्वभावः. तर्हि एकविध अवयवादिजन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते इत्युक्ते एकविध अवयवादिजन्यानि इत्युक्ते अवयवा इत्युक्ते शरीरं, तस्य आकारः एकविधः इति, कोऽपि गौः इति अस्ति, तस्य आकारः इति शृङ्गः, मस्तिष्कः, आकारः इति गौशरीराणि तत्र सर्वत्र एकः. कोऽपि गौः इति श्वेतः अस्ति वा, कृष्णः वर्णः अस्ति वा, परन्तु शरीरं तु एकमेव. गौशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः इत्युक्ते तत्र स्वभावः तथा सम्यक् अस्ति इत्युक्ते यथा बालकः गवाख्यात् दृष्टवान् प्रथमक्षणे, तत् एक गौः आसीत्. अन्यत्र यदा पिता सहित उद्यानं गच्छति तदा अनन्तरम् अन्य एक गौः इति दृष्टवन्तः. द्वयोः इति भिन्नः अस्ति, तस्य एकमेक गौः इति नास्ति, भिन्नम् अस्ति, परन्तु तथापि सः जानाति इति गौः इति द्वयोः तस्य नामकरणम् इति एकमस्ति. अनुगतः इत्यस्य सर्वत्र विद्यमानः इति अर्थः. अनुगतः इत्युक्ते किं? अनुगतः इत्युक्ते सर्वत्र विद्यमानः अस्ति. तत्तत् स्वभावः इत्युक्ते अनुगतः धर्मः यथा लेखकः वदति, तत् स्वभावः इत्युक्ते सर्वत्र वर्तते. सर्वत्र गौः इति तस्य अवयवाः एवम् अस्ति कृत्वा बालकः द्वौः गौः दृष्ट्वा वदति, प्रथमम् इति यथा माता दृष्टवती तथा गौ, पिता सहितं यदा उद्यानं गच्छति तत् अपि गौ इति अस्ति. एवं च गवाख्यात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति. गवाख्यात् इत्युक्ते तत्र गृहे यथा वातायनं भवति ततः दृष्ट्वा गोशरीरं गोत्वसामान्यं. गोत्वसामान्यम् अत्र सामान्यम् इत्युक्ते समानानां धर्मः इत्युक्ते तत्र गौः अस्ति, तत्र गोत्व इति भवति तस्य गुणः प्रायः इति वक्तुं शक्यते इति चिन्तयामि. तत्र उभयं अहं भगिनि
समीचीनमेव महोदय, यत्र गौ अस्ति तस्य धर्मः गोत्वम् अपि भवति.
गोत्वं समीचीनं, यथा वयं चर्चितवन्तः पुस्तकम् अस्ति, पुस्तकत्रयम् अस्ति, तत्र सर्वत्र पुस्तकत्वम् इति अस्ति, तथा गौः अस्ति तत्र गोत्वम् इति सामान्यम् उभयं सः पश्यति बालकः. मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति. माता इति इयं गौः इति उक्तौ इत्युक्ते माता प्रथमे दर्शितवती इति इयं गौः इति, तर्हि गोशब्दस्य गोत्वशरीरयोः इत्युक्ते तस्य धर्मः एतत् शरीरं दृष्ट्वा तत्र गोत्वम् इति अस्ति च इति बालः तत् सम्बन्धं जानाति. तत् सम्बन्धं किम् अस्ति? ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. इत्युक्ते प्रथमे मनसि स्थापयति गौः दृष्ट्वा तत्र गोत्वम् अस्ति इति कृत्वा, यथा माता दृष्टवती. तदनन्तरं यदा पिता सहितं गच्छति उद्यानं, तत्र मार्गे पश्यति पुनः नूतन गौः तत्र अस्ति, तत्र अपि तप्त गां इत्युक्ते तत्र तत् दृष्ट्वा तत्र गोत्वम् इति अस्ति, इत्युक्ते तस्य गुणः गोत्वम् अस्ति इति सः पश्यति. तर्हि माता उक्तवती इयं गौः, तर्हि गोशब्दं स्मृत्वा बालकः गोशब्दं स्मृत्वा गौः इयमति च वक्ति, इत्युक्ते द्वितीयवारं यथा सः पश्यति इयमपि गौः इति वदति. किमर्थम् इत्युक्ते प्रथमे श्रुतवान् सः, माता उक्तवती गौः इति अत्र गोत्वं द्वयोः गौः पश्यति यदा प्रथमवारं द्वितीयवारं, तत्र गोत्वम् इति गुण सामान्यं समानानां धर्मः सामान्यं तत् उभयत्र इति अस्ति.
बहु समीचीनमस्ति महोदय. अस्तु, सर्वं सम्यक्तया प्रतिपादितं सरला भगिन्या अपि च सभ्यमहोदयेन. अधुना द्रष्टव्यमस्ति सर्वे अवगन्तः वा अवगतवन्तः वा न वा इति. जगन्नाथमहोदय,
एकः प्रश्नः, एतदपि व्याकरणरीत्या एव, क्षम्यताम्. सामान्यतया वयं वदति इति वदामः, अत्र यद् वक्ति लिखितमस्ति तत्र अर्थभेदः किमपि अस्ति वा?
न महोदय, धातुः भिन्नः, वच् इति धातुः, तावदेव. वदति इत्यत्र वद् इति धातुः.
वधु, अस्तु, धन्यवादः.
तावत् अस्तु महोदय, भवानेव वदतु सारांशरूपेण किम् अवगतम् एतावता इति. जगन्नाथ
भगिनी, एकः प्रश्नः अस्ति, महोदय वदति तदनन्तरं पृच्छामि वा अथवा?
वदतु भगिनि, अस्ति चेत् स्पष्टीकरणम्.
अत्र इदानीम् अत्र सामान्यम् इत्युक्ते अत्र गोत्वम् इति सामान्यम् अपि च गोशरीरमपि सामान्यं वा अथवा केवलं गोत्वमेव सामान्यम्?
गोत्वम् इति सामान्यम्.
तर्हि अत्र
सामान्यम् अत्र पश्यतु भगिनि, अत्र त्वम् इति यथा योज्यते तत्र भावः प्रदर्श्यते. अस्तु, यथा मनुष्ये मनुष्यत्वं भावः, गोषु गोत्वम् इति भावः. तत्र भावः इत्यस्य अर्थः कः? कश्चन स्वभावः अस्ति मनुष्ये, मनुष्यत्वम् इति स्वभावः धर्मः अस्ति किल, तदेव तदेव सामान्यम् इति उच्यते.
तर्हि अत्र एवं च गवाक्षात् बालः गोशरीरं गोत्रसामान्यं च उभयं पश्यति इति अस्ति. उभयं दृष्ट्वा एव सः ज्ञातवान् ओ इयं गौः इति. तर्हि अत्र गोशरीरम् इत्यस्य महत्वं किम्? अत्र गोत्वम् इति सामान्यम् इति अवगतवती, परन्तु अत्र गोशरीरम् इति इत्युक्ते आकारः दृष्ट्वा
समानानाम् इत्युक्ते सर्वासां गां समान अवयवाः भवति खलु. गोशरीरं दृष्ट्वा कथञ्चित् अभिज्ञातुं शक्नोति. पादमस्ति, पादमपि किञ्चित् साम्यम् अस्ति तत्र, किं तत्र आकारे साम्यम् अस्ति तथा. तदर्थं गोशरीरगोत्वसामान्य अनयोः सम्बन्धं कल्पयति मनसि.
अस्तु अस्तु. अत्र गोशरीरम् इत्युक्ते अवयवः नास्ति. गोशरीरम् इत्युक्ते सम्पूर्ण गौः
शरीरं. अपि च सम्पूर्णशरीरस्य दर्शनेन अवयवाः अपि दृश्यन्ते खलु. अवयवानां मिलितानां रूपमेव गोशरीरम् इति मनसि भवेत् तस्य. अत्र गोशब्दः, गोशब्दस्यापि महत्वमस्ति. तत्र फुट्नोट् इति पश्यन्तु, द्वितीयं फुट्नोट्, अमुं च सम्बन्धं शक्तिरूपं शब्दखण्डे निरूपयिष्यामः इति अस्ति. माता केवलं गां न प्रदर्शयति, इयं गौः इति अपि वदति. तदपि अस्ति बालकस्य मनसि किल. तर्हि गोशरीरं, गोशब्दं, शब्दस्य शक्तिः, तादृशशक्तिः अस्ति, अर्थज्ञापनशक्तिः. शाक्तं पदम् इति उच्यते. अस्तु, तदर्थं सः गोत्वस्य अपि च गोशब्दस्य सम्बन्धं मनसि कल्पयति. शब्दं श्रुत्वा तादृशशक्तिः अस्ति शब्दे. गोत्वा अपि च गोशब्द शब्दयोः मध्ये तादृश अर्थकल्पनशक्तिः अस्ति. तत्सर्वं श्रुत्वा सः अपरां गां दृष्ट्वा इयमपि गौः इति वक्तुं शक्नोति इति वार्ता. उत्तम.
इत्युक्ते गोशरीरे सामान्यमपि अस्ति, भेदोपि अस्ति इति वयम् अवगच्छामः, अवगन्तुं शक्नुमः इति मन्ये.
एकस्मिन् गोशरीरे इति अथवा बहुषु गोषु, गवां मध्ये,
बहुषु गोशरीरेषु सामान्यमपि, गोत्वम् इति सामान्यं सर्वत्र सन्ति. अन्यविषये तु सामान्यम् अपि भवितुं शक्नोति, भेदोपि भवितुं शक्नोति.
समीचीनं महोदय, सारांशत्वेन तदेव जातं. भवान् यद् भवता यद् वक्तव्यम् आसीत् तद् उक्तवान् एव भवान्. इत्युक्ते एकरीत्या सर्वासु घोषु गोत्वम् इति सामान्यमस्ति इति साम्यं तत्र. परन्तु अवयवाः, शरीरवयवाः भिन्नाः खलु. एकं कृष्णगौः स्यात्, अपरं श्वेता, अपरा श्वेता गौः स्यात् तथा. एकरीत्या सामान्यम्, एकरीत्या साम्यम्, अपररीत्या भिन्नता अपि अस्ति. समीचीनम्. अस्तु जगन्नाथमहोदय, किञ्चित् सारांशत्वेन वदतु अत्र किं किं बुद्धम् इति.
माता इयं गौः इति दर्शितवती एक किमपि पदार्थः दर्शयित्वा इयं गौः इति उक्तवती. तद् दृष्ट्वा तस्य नाम मनसि बालः स्थापयति. अन्य तस्मिन् समये एव सः गोत्वं किम् इति मनसि अवगतवान्. गौः सप्तमी विभक्ति का भगिनी?
गवि गवि गवि
गवि गोत्वम् अस्ति इति अनुतत्वेनपि सः अवगतवान्.
तर्हि भवान् यदुक्तवान् अनुक्तत्वेन अवगतम् इति सत् समीचीनमेव, यतोहि तत्र सामान्यधर्मः इति कश्चन अनिर्वचनीयम् इति वदन्ति, केनाट् बि एक्स्प्रेस्ड् इन् वर्ड्स्, किन्तु अवगच्छति तथा सम्यक्तया उक्तं भवता, तदेव अस्ति. अस्तु महोदय, अग्रे.
अन्यत्र भिन्न भिन्न भिन्नभिन्न धेनु दृष्ट्वा स एतद् तत्र शरीरभे यद्यपि शरीरभेदाः सन्ति तर्हि अपि सर्वत्र सः सर्वेषु सः गोत्वं पश्यति, तेन सः गौ यं गौः इति वदति.
हा, बहु समीचीनमस्ति. तर्हि प्रथमं तस्य मनसि यथा मदेन उक्तवान् अनुक्ततया एव अनिर्वचनीयम् इति वदन्ति धन्वः, अनुक्ततया एव गोत्वम् इति कथञ्चित् मनसि स्थास्यति. तदनन्तरं मात्रा गोशब्दः अपि श्रूयते, तर्हि तयोः सम्बन्धं कल्पयति. शाक्तं पदम् इति यथा मया उक्तं, शक्तिः अस्ति तादृश, गोत्वस्य गोशब्दस्य शक्तिः. तदनन्तरं पुनः गोशरीरेण सह सम्बन्धं कल्पयित्वा सर्वासु गोषु गोत्वम् अस्ति इति अभिज्ञाय अपराम् अथवा नूतनां गां पश्यति चेत् अपूर्वा इति भवति शास्त्रव्यवहारः. नूतनां गां दृष्ट्वा इयमपि गौः इति वदति. कथम् एतत् सर्वं जातम् इति चेत् गोत्वसामान्यस्य माध्यमेन, गोत्वम् इति सामान्यं मनसि निधाय नूतनाम् अथवा अपूर्वां गाम् अभिजानाति बालकः. इदमेव न्यायशास्त्रे सामान्यम् अथवा जातिः इति उच्यते. सामान्यम् इत्युक्ते जातिः. कोऽपि प्रश्नः वा कस्यचित्, अथवा अग्रे सरेम? अस्तु, तर्हि विजया.
अत्र सामान्यम् इति पदार्थस्य लक्ष्यं किम् इति चेत् द्रव्यस्य द्रव्यजातिः जातेः अभिज्ञानार्थम् इति वा?
सत्यं भगिनि, इति सामान्यम् इत्युक्ते जातिः एव, जातेः अभिज्ञानार्थम् इति.
जातेः अभिज्ञानार्थं
वस्तुनः अभिज्ञानार्थम् इति वदतु, यतोहि सामान्यं जातिः पर्यायवाचि शब्दौ द्वौ. जातेः अभिज्ञानार्थम् इति न, जातिः वस्तुनः अभिज्ञानार्थम् अस्ति इति. पुस्तकम् इत्यनेन अथवा पुस्तकम् इति दृष्ट्वा तस्मिन् पुस्तकत्वम् इति जातिः अस्ति इति ज्ञातुं शक्नुमः. तेन आधारेण अपूर्वम् अथवा नूतनं पुस्तकं दृष्ट्वापि तदपि पुस्तकम् इति वक्तुं शक्नुमः.
तर्हि द्रव्याणाम् अभिज्ञानार्थं,
द्रव्याणाम् अभिज्ञानार्थं हा इति वक्तुं शक्यते. द्रव्याणाम् इति न, पदार्थानाम् अपि इति आगच्छति खलु, गुणे गुणत्वं, कर्मणि कर्मत्वं.
सत्यम्, अस्तु, धन्यवादः.
अस्तु, समीचीनं. तर्हि विजया हेतिराजन् भगिनी अस्ति वा?
अहं पठामि भगिनि.
अस्तु,
तथा च सामान्यपदार्थ स्वीकारे अपूर्वगो व्यक्तेः ज्ञानं न स्यात्. इत्युक्ते सामान्यपदार्थ स्वीकारः अस्ति चेत् तत्र एतत् गौः अवयवाः शृङ्गपादयः कृष्ण सीता वा इति स्वीकारे अपूर्वगो व्यक्तेः एतत् किमर्थं भिन्नः वा इति ज्ञानं तस्य बालः समीपे नास्ति न स्यात्
अत्र अत्र भगिनि एकं वक्तव्यम् अस्ति एकं वक्तव्यं सामान्यपदार्थ अस्वीकारे स्वीकारे न तद् पदमस्ति खलु सामान्यपदार्थस्वीकारे तस्य विग्रहवाक्यं वदामि शृणोतु सामान्यपदार्थस्य अस्वीकारे यदि इत्युक्ते किं सामान्यपदार्थं वयं न स्वीकुर्मः चेत् तदा किं भवति
परिवर्तनं तत्र अस्ति विपरीतज्ञानं तत्र अस्ति
सामान्यमिति एकः पदार्थः सामान्यमिति एकः पदार्थः तस्य अस्वीकारे तस्य अस्वीकारे सामान्यमिति पदार्थं न स्वीकुर्मः चेत् तदा किं भवति इति वाक्यस्य द्वितीयभागः अपूर्वगोव्यक्तेः ज्ञानं न स्यात् अपूर्व इत्युक्ते विलक्षण अपूर्व इत्युक्ते नूतन विलक्षण युनीक् युनीक् गोव्यक्तेः व्यक्तिः इत्युक्ते न्यायशास्त्रे सदस्यः इति चिन्तयतु पुस्तकत्वम् इति एका श्रेणिः चेत् प्रत्येकं पुस्तकं तस्मिन् व्यक्तिः अपूर्वव्यक्तिः नूतनव्यक्तिः अस्तु तर्हि सामान्यपदार्थः मास्तु इति त्यजामः चेत् सामान्यः इति पदार्थः एव मास्तु इति न स्वीकुर्मः चेत् तदा अपूर्वगोव्यक्तेः अथवा अपूर्वव्यक्तेः ज्ञानमेव न भवति अस्माकं किल सामान्यस्य आधार हा किं किं भगिनि
सामान्यस्य ज्ञानं न स्यात् इत्युक्ते तस्य बालकस्य ज्ञानमेव तत्र वक्तुं शक्नुमः खलु
न न अपूर्वगोव्यक्तेः ज्ञानम् इत्युक्ते गौः इति नूतनगां दृष्ट्वा तस्य ज्ञानं न भवति बालकस्य हा बालकस्य ज्ञानम् इति सत्यं परन्तु सामान्यपदार्थस्य आवश्यकता का न्यायशास्त्रे इति अत्र दत्तमस्ति आवश्यकता अस्ति सामान्यम् इति पदार्थं न स्वीकुर्मः चेत् अपूर्वव्यक्तेः अत्र तु गोव्यक्तिः इति तस्य ज्ञानं न स्यात् इति अस्तु भगिनि अग्रे
क्षम्यतां भगिनि पुनरेकवारम् अपूर्व इति शब्दस्य अर्थं वक्तुं शक्नोति वा
नूतनमेव तत्र
अपूर्व इति नूतनम् अपि च विलक्षणं महोदय
विलक्षणम् अस्तु
विलक्षणं
धन्यवादः
विलक्षणम् अनन्तरं नूतनमेव खलु
सत्यं सत्यं भगिनि
इतःपर्यन्तं बालकः न दृष्टवन्तः
सत्यम्
अतः
अधुना
नूतनमेव तथा
सत्यं नूतनं गां पश्यति अपूर्व इत्यस्य तादृश अर्थः अस्तु अग्रे भगिनि
अतः सामान्यम् अवश्यं स्वीकार्यं तदेव शास्त्रे जातिः इति यदि श्रूयते जातिः इत्युक्ते पशुजाति गोजाति इति तत्र सामान्यधर्मः तत्र अस्ति एतत् सामान्यम् इत्युक्ते सामान्यम् अवश्यं तत्र स्वीकार्यं तत्र समानानां धर्मः सामान्यमिति वयं जानीमः इति व्यवह्रियते तत् लक्षणविचारः सङ्ग्रह अनुसारणैव भविष्यति लक्षणविचारः तत्र गोः तत् तत्र लक्षणमस्ति अवयः वा श्रृङ्गपादयः श्वेतकवर्णः वा कृष्णवर्णः वा इति तत् तत् लक्षणं तत्र विचारः अस्ति एतत् सङ्ग्रह अनुसारणेनैव तत्र गौः लक्षणं भविष्यति
गौः लक्षणम् इति न भगिनि सामान्यं सामान्यस्य चर्चा खलु प्रथमवाक्यं पश्यतु सामान्यम् अवश्यं स्वीकार्यं इत्युक्ते सामान्यम् आवश्यकमस्ति सप्तपदार्थेषु तस्य आवश्यकता नितराम् अस्ति तदेव शास्त्रे जातिः तावदवगच्छति खलु, शास्त्री जातिः इत्युक्ते सामान्यम् इति व्यवह्रियते, इत्युक्ते व्यवहारं व्यवहारः सामान्यम् इत्युक्ते जातिः इति व्यवहारः शास्त्रे. तल्लक्षणविचारः, तत्र सन्धिः अस्ति, तद् प्लस् लक्षण, तल्लक्षणविचारः कस्य लक्षणविचारः? न भगिनि तत् त्यजतु, एकनिमिष, महोदय सामान्यलक्षणविचारः, सामान्यम् अवश्यं स्वीकार्यम् आवश्यकं, शास्त्रे तदेव जातिः, अपि च तस्य लक्षणविचारः अग्रे भविष्यति सङ्ग्रहानुसारेणैव, इत्युक्ते तर्कसङ्ग्रहस्य अनुसारेण अग्रे अस्मिन् ग्रन्थे सामान्यस्य लक्षणविचारः क्रियते. अधुना केवलम् एवं जानन्तु यत् सामान्यम् इत्युक्ते जातिः, समानानां धर्मः सामान्यं तावत् जानन्तु, तस्य लक्षणस्य विचारः अग्रे पुनः क्रियते इति. बुद्धं
धन्यवादः.
अस्तु, समीचीनं भगिनि. मेहलमहोदय अग्रे कृपया.
अस्तु, एकत्र अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परमपरं चेति द्विविधं सामान्यम् इति दर्शितरीत्या सामान्यं सिद्धं तत्र इदमुक्तं भवति. पुस्तके पुस्तकत्वं सामान्यम् अस्ति, तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, अतः तत्र पृथिवीत्वं जाति वर्तते. पुस्तके पूर्वोक्तरीत्या गुणोऽस्तीति तद्द्रव्यमपि, अतः तत्र द्रव्यत्वं जातिरपि अस्ति. अत्र एकत्र अनेकजातीनां वृत्तित्वनिरूपणम्, अत्र यदि जातिः इत्युक्ते सामान्यम् इति वयं दृष्टवन्तः, यदि वयम् अनेकजातीनाम् एकत्रं पश्यति चेत् तत्र निरूप वृत्तिः तत्त्वस्य निरूपणं भवति इति अहं चिन्तयामि.
वृत्तिः, वृत्तिः इत्युक्ते आदेयः न्यायशास्त्रे. वृत्तिः इत्युक्ते आधेयः, वृत्तित्वम् इत्युक्ते आधेयत्वम् इत्युक्ते एकस्मिन् स्थले अनेकजातीनाम् आधेयत्वम्.
अस्तु, तद्विभागं सम्प्रति आह, तत्र द्वयोः भागः अस्ति, परम् अपरम्, द्वयोः सामान्यम् इति वयं वक्तुं शक्नुमः, परम् अपरं. दर्शितरीत्या सामान्यं सिद्धं, दर्शितरीत्या इत्युक्ते किम् अहं न जानामि.
इदानीं दर्शितं खलु, तथा तावदेव,
तथा सामान्यं वयं जानामि, तत्र इदमुक्तं भवति सामान्यं कथम् इति वयं दृष्टवन्तः. पुस्तके अत्र एकम् उदाहरणं दत्तमस्ति, पुस्तके पुस्तकत्वं सामान्यमस्ति, इत्युक्ते पुस्तकस्य धर्मः तत्र पुस्तकत्वम् इति वयं जानीमः. तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, पृथिवी इत्युक्ते सृष्टि वा
किं महोदय?
वक्ष्यमाण,
वक्ष्यमाण इत्युक्ते प्रथमतया वच् इति धातुः, तस्मात् भूत् भविष्यत्कालार्थे शानच् इति प्रत्ययः, अन्ततो गत्वा वक्ष्यमाणरीत्या इत्युक्ते अग्रे वदिष्यामः तया रीत्या. पुस्तकं पृथिवी अपि किल, नवद्रव्याणि सन्ति, पृथिवी, जलं, तेजः, वायुः, आकाशः इत्यादि.
यथा पुस्तक उदाहरणं स्वीकृत तथा पृथिवी अपि अनन्तरं वक्ष्यामः तत्र वयं.
एकनिमिष, तथैव पुस्तकं वक्ष्यमाणरीत्या अग्रे उच्यमानरीत्या पृथिवी अस्ति पुस्तकं. पुस्तकं जले भवितुमर्हति वा? नास्ति खलु. इदानीम् अहं दुग्धं, क्षीरम् इति वदामि चेत् तद् जले गन्तुमर्हति, जलस्य श्रेण्यां किल. किन्तु पुस्तकमिति पृथिवी, अतः पुस्तके किं जाति, का जातिः वर्तते?
पृथिवी,
पृथ्वीत्वं,
पृथ्वीत्वम्. तस्य स्वभावः अथवा गुणः पृथ्वीत्वम् इति वर्तते पुस्तके.
स्वभावः धर्मः इति वदतु.
आम्, स्वभावः धर्मः.
गुणः इति चेत् अन्ये सन्ति, गुणः इति मास्तु, यतोहि गुणः इत्युक्ते न्यायशास्त्रे विशिष्टपदार्थाः, रूपरसगन्धादयः खलु. पृथ्वीत्वम् इति तत्र गुणे न गन्तुमर्हति.
पुस्तके पूर्वोक्तरीत्या गुणो गुणोस्तीति तद्द्रव्यम् अपि. यदि यथा पुस्तकं, वयं पुस्तकस्य उदाहरणं दृष्ट्वा तत् रीत्या गुणः इति तद्द्रव्यमपि, तत्र गुणः अपि गुणे द्रव्यमपि अस्ति. अतः यथा
द्रव्ये गुणः अस्ति,
द्रव्ये गुणः अस्ति अत्र, तत् अतः तत्र द्रव्यत्वं जातिरपि अस्ति, द्रव्यत्वस्य सामान्यमपि अस्ति तत्र इति अहं चिन्तयामि.
पुस्तकम् अस्तु, अन्ततो गत्वा पुस्तकं द्रव्यम् इति अङ्गीकरोति वा?
आम् आम्.
हा, पुस्तकं द्रव्यम् इति कृत्वा पुस्तके द्रव्यत्वं, पुस्तकं पृथिवी अस्ति इति अङ्गीकरोति वा?
आम् आम्.
तदर्थं पृथ्वीत्वम् अस्ति, अपि च पुस्तकं तु पुस्तकं, तर्हि पुस्तकत्वम् इति जातित्रयं वर्तते तत्र, अथवा सामान्यत्रयं वर्तते तत्र.
आम्, पुस्तक पृथिवीत्वम् अपि च द्रव्यत्वम् इति त्रयोः वर्तते.
सत्यं,
समीपं न अवगतं लास्ट् सेण्टेन्स्. पुस्तके त्रयो गुणाः वा सन्ति?
त्रयः जातयः,
जातेः,
क्षम्यतां,
पृथ्वीत्वं, पुस्तकं, तिस्रः जातेः, पुस्तकत्वं, पृथ्वीत्वं, द्रव्यत्वं. धन्यवादः.
समीचीनम्. अस्तु, किञ्चित् अग्रे सर्तुं शक्नुमः. अजितमहोदय पठति वा अग्रे? अजितमहोदय अस्ति.
इत्थं दर्शितरीत्या पुस्तके द्रव्ये
महोदय तदभवत् एकनिमिषः, तदभवत् इदानीं नीलवर्णम्. कुत्र अस्ति द्वितीयपरिच्छेदः? इदानीं,
आम् अस्तु, इदानीं नीलवर्णम् उदाहरणं स्वीकुर्मः. तत्र नीलत्वजातिरस्ति सः वर्णः, अतः तत्र वर्णत्वमपि वर्तते. परन्तु शब्देपि वर्णः इति व्यवहारः वर्तते, अतः वर्णः इत्युक्तौ संशयः भवति. अतः इतः वर्णे रूपम् इति व्यवहारं व्यवहारामः, तथा च
तावत्पर्यन्तं किञ्चित् प्रतिपादयतु.
अस्तु, अनन्तरम् एक अन्य उदाहरणं वयं स्वीकुर्मः, नीलवर्णम् इति. नीलवर्णे नीलत्वजाति, यथा पूर्वं पुस्तके पुस्तकत्वम् इति जाति अस्ति, तत्र नीलवर्णे नीलत्वम् इति जाति अस्ति. सः वर्णः, अतः तत्र वर्णत्वमपि वर्तते. यथा पुस्तके पुस्तकत्वं द्रव्यत्वमस्ति, तत्र नीलवर्णम् इति वदामः चेत् तत्र नीलत्वमस्ति अपि च वर्णत्वमपि अस्ति. परन्तु शब्देपि वर्णः इति व्यवहारः वर्तते. शब्देपि इत्युक्ते किं भगिनि? शब्देपि मीन्स् वर्णः इति एकः व्यवहारः.
हा, इत्युक्ते शब्दः इत्युक्ते शब्दमाला, आल्फबेट्.
आमाम् आम्.
स्वरः, व्यञ्जनानि, तानि अपि वर्णाः इति वदामः.
तानि वर्णाः. तत्र वर्णत्वम् इति वयम् अथवा वर्णः इति वदामः चेत् तत्र संशयः भवति, तत्र शब्दमालायां शब्दः अस्ति वा अथवा अन्य कोऽपि अस्ति वा इति. अतः अनन्तरम् अतः इतः वर्णे रूपम् इति व्यवहरामः.
वर्णे वर्णः इत्युक्ते तत्र भ्रमः मास्तु, शब्दस्यापि वर्णः इति व्यवहारः अस्ति. संशयः भवति यथा भवान् उक्तवान्, तदर्थम् इतः इत्युक्ते इतः अनन्तरं वर्णः इत्युक्ते रूपम् इति चिन्तयतु.
अथवा वर्णत्वं वयं रूपत्व वर्णत्व वर्णस्य नाम रूपत्वम् इति इतः अनन्तरं वदामः.
इत्युक्ते नीलवर्णः इति यदा व्यवहारः भवति तदा नीलवर्णः इत्युक्ते कश्चन गुणः इति चिन्तयतु. कः गुणः इत्युक्ते रूप इति गुणः, तथा भवति व्यवहारः. समीचीनमस्ति. अस्तु अन्य अस्तु पठतु महोदय.
तथा च नीलरूपे
एकनिमिष महोदय एकनिमिष प्रश्नः अस्ति वा मुरली महोदय?
अहं पठामि भगिनि.
अस्तु अस्तु पठतु महोदय. अजित महोदय मुरली महोदय पठिष्यति. अस्तु पठतु महोदय.
भगिनि भगिनि अहं शशिकिरणः, मम एकः प्रश्नः अस्ति अत्र. इदानीम् अत्र अजित् यथा अजित् महोदय पठितवान् इतः अनन्तरं वर्णस्य वयं रूपमिति नामस्य नामं दत्वा व्यवहरामः इति, तत्र नीलवर्णस्य इत्युक्ते वर्णः अनन्तरं रूपं द्वयोः पर्यायपदम् इति एव खलु?
अस्तु रूपम् इत्यस्मिन् अस्तु न्यायशास्त्रे तथा चिन्तयतु महोदय. रूपम् इत्युक्ते वर्णः इति चिन्तयतु.
यदा वयं नीलवर्णः अथवा नीलरूपम् इति वदामः समान अर्थः आगच्छति वा?
सत्यं न्यायशास्त्रे तथा.
अस्तु
इति चिन्तयतु. व्याकरणशास्त्रे वर्णः इत्युक्ते शब्दः अक्षराणि तथा नास्ति. अत्र वर्णः इत्युक्ते रूपम् इति व्यवहारः भवतु.
अस्तु
अस्तु सम्यक्. अस्तु मुरली महोदय कृपया.
स च गुण इति कृत्वा तत्र गुणत्वजाति
एकनिमिष महोदय तथा एकनिमिष तथा च नीलरूपे तस्मात् आरभ्य
अतः इतः तदेव पठामि.
अस्तु
अतः इतः वर्णे रूपम् इति व्यवहारामः, तथा च नीलरूपे रूपत्वम् अपि वर्तते. स च गुण इति कृत्वा तत्र गुणत्वजातिर् अपि वर्तते. कर्मस्थले उक्षेपणम् उदाह्रियते. उक्षेपणे उक्षेपणत्वं वर्तते. तच्च कर्म इति तत्र कर्मत्वम् अपि वर्तते. तदा चेत्त्वं चित्रं भवेत्.
अवगतं वा महोदय?
अतः इतः वर्णे रूपम् इति व्यवहरामः. वर्णशब्दं बहुविधानाम् अर्थं बोधयति. एकः वर्णम् इति नीलवर्णम् अथवा अक्षराणि अथवा चतुर्विधवर्णं सयेष.
हा बहु समीचीनं, किन्तु न्यायशास्त्रे वर्णः इत्युक्ते रूपम् इति
अथवा व्याकरणशास्त्रे अक्षराणि इति रूपं वर्णः. वर्णः शास्त्र तर्कशास्त्रे वर्ण इत्यर्थे रूपं.
समीचीनं.
तथा च नीलरूपे रूपवत्वपि वर्तते.
अधोभागे चित्रमस्ति एकनिमिष अधोभागे एकं चित्रमस्ति पश्यति वा नीलरूपे नीलत्वम् अपि च नीलरूपे रूपत्वं नीलरूपे गुणत्वं वर्तते
नीलरूपं नीलत्वमस्ति रूपत्वम् अस्ति अथवा गुणत्वम् अस्ति नीलरूपस्य त्रिषु अर्थेषु सन्ति नीलत्वं रूपत्वं
हा नीलरूपे तिस्रः जातयः अथवा त्रीणि सामान्यानि सन्ति
त्रीणि सामान्यानि
सन्ति इति प्रदर्शितम्
इति प्रदर्शितम्
उत्क्षेपणे किमस्ति उत्क्षेपणमिति अस्ति महोदय उत्क्षेपण किम् अस्ति उत्क्षेपणकर्म तस्मिन् उत्क्षेपणत्वम् अपि च कर्मत्वम् इति जातिद्वयं वर्तते
जातिद्वयम् अस्ति तच्च कर्म इति तत्र कर्मत्वमपि वर्तते कर्म इति कर्मत्वमेव वर्तते
सत्यम् अस्तु हा समीचीनम् इति एव वार्ता उत्क्षेपणम् इति कर्म अस्ति तदर्थं तस्मिन् कर्मत्वं वर्तते अपि च उत्क्षेपणे उत्क्षेपणत्वं वर्तते इति चित्रे सर्वं प्रदर्शितम् एकस्मिन् पदार्थे तिस्रः जातयः अथवा द्वे जाती स्तः इति प्रदर्शितं पुस्तक अस्तु श्रीवल्ली भगिनी अस्ति वा भगिनि श्रीवल्ली भगिनी अस्ति किम् अस्तु तर्हि का विद्या भगिनी अग्रिमपरिच्छेदं पठतु एकवारं समापयामः तदा
इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति कर्मणि द्वे जाती भवेताम् सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति इदं पुस्तकम् इदम् अपरं पुस्तकम् इदमपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति एवं गुणत्वादौ ज्ञातव्यं तत्रापि रूपं गुणः रसः गुणः इत्येवम् एकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धिः एवं कर्मणि अत्र चित्रे प्रदर्शितम् अस्ति तत्र पुस्तकम् इति द्रव्यम् अस्ति नीलरूपम् इति गुणः उक्षेपणकर्म इति कर्म इति अस्ति तत्र सामान्यम् इति पदार्थः द्रव्ये गुणे कर्मणि अस्ति इति वयं पूर्वं दृष्टवन्तः तत्र द्रव्ये पुस्तकम् इति द्रव्यम् अस्ति तस्मिन् तिस्रयः जातयः पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् इति दत्तमस्ति अनन्तरं नीलरूपे तिस्रयः जातयः नीलत्वं रूपत्वं गुणत्वम् इति अनन्तरम् उत्क्षेपणकर्म इति तस्मिन् उत्क्षेपणत्वं कर्मत्वम् इति द्वे जाति कथं वयं जातयः कथं वयं प्राप्नुमः इति चेत् तत्र एकविधदर्शनेन इत्युक्ते किम्
एकविधदर्शनेन इत्युक्ते पुस्तकानि सर्वाणि समानानि खलु दर्शनेन वयं ज्ञातुं शक्नुमः यद् अस्तु इदमपि पुस्तकम् अपरमपि पुस्तकम्
अस्तु
कुत्रचित् साम्यमस्ति यद्यपि पुस्तकस्य वर्णः अथवा रूपं भिन्नं स्यात् रक्तवर्णीयं पुस्तकम् अथवा श्वेतवर्णीयं तथा स्यात् किन्तु पुस्तकस्य अवयवाः पृष्ठानि तानि समानानि खलु सर्वेषु पुस्तकेषु पृष्ठानि भवेयुः तादृश एकविधदर्शनं भवति सर्वेषु पुस्तकेषु इति
तर्हि वयं पुस्तकं पुस्तके पुस्तकत्वं दृष्ट्वा अस्तु तत्र सर्वेषु पुस्तकेषु पुस्तकत्वम् अस्ति इति वदामः वा
पुस्तकत्वम् इति अनुक्ततया यत् अथवा अनिर्वचनीयमस्ति कथञ्चित् मनसि स्थास्यति एकपुस्तकस्य दर्शनेन समानविधदर्शनं यदि अपरस्मात् पुस्तकात् प्राप्यते चेत् ओ तत्र अपि पुस्तकत्वम् अस्ति इति मनसि अस्माकं निर्णयः भवति
अस्तु तर्हि एकविधदर्शनेन इदं पुस्तकम् इदम् अपरं पुस्तकम् इदमपि अपरं पुस्तकम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वम् इति जातिः इति जातिं जातेः निरूपणं भवति. एवमेव अत्र नीलरूपम् इति गुणः अस्ति. गुणं तर्हि तत्र इदं नीलरूपम् इदं रक्तरूपम् इति तादृश अनेकानि रूपाणि दृष्ट्वा वयं तत्र ओ नीलरूपे नीलत्वम् इति जातिः अस्ति इति वयं ज्ञातुं शक्नुमः. एवमेव अत्र कर्मणि अपि
सत्यं भगिनि इति एव वार्ता अत्र. तत्रापि रूपं गुणः रसः गुणः इत्येवम् एकाकारप्रतीत्या. एकाकारप्रतीतिः इत्युक्ते व्यवहारः. अस्तु, एकाकारप्रतीतिः अयं गुणः रूपः गुणः रसः गुणः तादृशव्यवहारेण अस्माकं मनसि कश्चन प्रतीतिः अथवा ज्ञानं जायते खलु, अयं गुणः अयमपि गुणः इति. तादृश एकाकारप्रतीत्या गुणत्वम् इति अपि सिद्ध्यति. एवं कर्मणि कर्मत्वम् इति सिद्ध्यति. अपि च तद्विशिष्टकर्म अस्ति चेत् उत्क्षेपण इत्युक्ते उत्क्षेपणत्वम्, आकुञ्चनम् इत्युक्ते आकुञ्चनत्वं तथा सिद्ध्यति.
अस्तु
अस्तु, अत्र इतोपि किञ्चित् चिन्तनमस्ति. नीलत्वम् इति अस्ति खलु, तर्हि अस्माभिः उक्तं समानानां धर्मः सामान्यम्. नाम नीलत्वम् इति समानेषु वर्तेत, बहुषु वर्तेत, तदा एव सामान्यम् इति भवति. तत्र किं चिन्तनम्?
नीलरूपम् इति बहुषु नीलः घटः नीलः पटः इति तत्र नीलत्वं वर्तते खलु.
हा हा हा, बहु समीचीनं भगिनि. तथापि चिन्तयितुं शक्यते, अथवा शेड्स् इति वदामः खलु नीलवर्णस्य एव. कथञ्चित् नीलवर्णं दृष्ट्वा अयं नीलवर्णः इति जानीमः, लैट् ब्लू भवतु अथवा डार्क् ब्लू भवतु किल, कथञ्चित् जानीमः नीलत्वम् इति अस्ति इति. तर्हि नीलत्वम् इति बहुषु वर्णेषु वर्तते इति कृत्वा नीलत्वम् इति जातिः. जातिः इति वक्तुं प्रथमतया समानानां धर्मः भवेत्, समानाः भवेयुः, अनेकानि पुस्तकानि भवेयुः, तेषु पुस्तकत्वम् इति सामान्यम् अथवा जातिः. तद्वदेव नीलरूपम् अपि अनेकानि, यथा घटगतनीलरूपम् अथवा पटगतनीलरूपं तथापि चिन्तयितुं शक्नुमः, अथवा शेड्स् इति अपि. बहुषु तथा नीलत्वम् अस्ति चेत् वयं नीलरूपम् इति अवगन्तुं शक्नुमः. इयं नीलत्वं रक्तत्वात् अथवा श्वेतत्वात् भिन्नम् इति अभिज्ञातुं शक्नुमः. अस्तु अस्तु, समीचीनम् इति सामान्यम् इति विषयस्य परिचयं प्राप्तवन्तः. आरम्भे एव परमपरं च इति द्विविधं सामान्यम् इति उक्तं, तस्य विषये अग्रे चर्चा भवति. सामान्यं द्विविधम् इति तत् किम् इति अग्रिमसप्ताहे ज्ञास्यामः. कोऽपि प्रश्नः वा एतावत्पर्यन्तं कस्यचित्? हा, प्रश्नः अस्ति चेत् वदतु. राधिका भगिनि,
यदि वदामः सामान्यं गुण पुस्तकं स्वीकुर्मः, पुस्तकत्वम् अस्ति, तदनन्तरं नीलत्वम् अस्ति, तदनन्तरं क्रमः अस्ति वा? प्रथमः प्रथमसामान्यम् एतद्, तदनन्तरम् एतद्, तादृशं क्रमः अस्ति वा अथवा सर्वमस्ति इति वदामः वा?
पुस्तके पुस्तकत्वम् अस्ति भगिनि इति सत्यम्. अस्तु, पुस्तके नीलरूपम् इति यदा यद्वदति भवति तत्तु गुणः अस्ति, द्रव्ये गुणः अस्ति इति सामान्यविचारः, तत्र किमपि कोऽपि भ्रमः नास्ति. अधुना पुस्तकगतगुणे काः काः जातयः वर्तन्ते अथवा कानि सामान्यानि वर्तन्ते इति चिन्तनीयं. पुस्तके नीलरूपम् इति गुणः वर्तते, कोऽपि क्रमः इति न, किं कस्मिन् वर्तते इति चिन्तनीयं. तावदेव, पुस्तके गुणः अस्ति किन्तु गुणे गुणत्वम् अस्ति तथा.
अस्तु अस्तु, परन्तु यदि पुस्तकत्वं तदनन्तरं पार्थिववस्तु इति वदामश्चेत् तादृशं वक्तुं शक्यते?
हा भवती कुत्र गच्छति इति किञ्चित् अवगच्छामि. तदेव अस्माकं सहैव विषयः अग्रिमसप्ताहे. पुस्तकत्वम् इति लघुजातिः, तदपेक्षया पृथ्वी इति किञ्चित् बृहत् खलु, सर्वेषु सर्वासु पृथ्वीषु वर्तते. द्रव्यत्वं तु सर्वा सर्वेषु द्रव्येषु वर्तते. एकरीत्या क्रमः इति वक्तुं शक्यते. पुस्तकत्वं केवलं पुस्तकेषु, पृथ्वीत्वम् अपरासु पृथ्वीषु अपि, द्रव्यत्वं सर्वेषु द्रव्येषु.
धन्यवादः भगिनि. अत्र नीलरूपे शेड्स् आफ् नीलः इति दृष्ट्वा वयम् ओ नीलत्वं जातिः इति प्राप्नुमः. उत्क्षेपणकर्म तत्र किम्?
उत्क्षेपण इति चिन्तनीयं भगिनि. क्षेपणम् इति तु अस्ति, अस्तु, उत्क्षेपण इति विशिष्टम् अस्ति. उपरि क्षेपणम्, उत् इत्युक्ते उपसर्गः तस्मिन् अस्ति खलु, उपरि गमनं. कर्म दृष्ट्वा तस्मिन् उत्क्षेपणम् अस्ति वा अथवा अपक्षेपणम् अस्ति वा इत्यादिकम् आरोपयितुं शक्नुमः. यथा बालकः गां दृष्ट्वा कथञ्चित् गोत्वम् इति आरोपितवान् गवि, तथा
ओ एवं कर्म दृष्ट्वा. अस्तु अस्तु, अवगच्छामि.
भगिनी, अत्र मम एकः प्रश्नः अस्ति. इदानीं भवती नीलरूपस्य विषये उक्तवती, नीलाकाशः, नीलपटः, पटः इति भवितुमर्हति, शेड्स् आफ् ब्लू इति. तत्र इदानीं तु वयम् उद्देशस्य विषये एवं चर्चां कृतवन्तः, इत्युक्ते केवलं नामनिर्देशं, तस्य परीक्षां न कृतवन्तः खलु. अतः अत्र नीलत्वम् अस्ति वा न वा, अथवा यदा वयं पश्यामः मिराज् इव किमपि भाति तदा नीलत्वम् इव पश्यति, परन्तु तत्र नीलत्वं न भवति, तस्य विषये इदानीं न दर्शितं खलु?
न दर्शितं, तादृशी चर्चा नास्ति. मम अपि जिज्ञासा आसीत् यदा अहं पठितवती नील. अस्तु, समानानां धर्मः सामान्यम् इति वदामः चेत् समानाः भवेयुः, सदस्याः भवेयुः खलु महोदय, इत्यर्थमेव अहम् उक्तवती. नीलत्वम् इत्यस्यां जात्यां सदस्याः सन्ति, तावदेव वक्तुम् इष्टवती.
न, अहं किमर्थं पृष्टवान् इत्युक्ते पूर्वस्मिन् उदाहरणे बालः तु गां दृष्टवान् पूर्वं यदा माता दर्शितवती वातायनात् बहिः. अत्र तु बालः तु सम्यक् दृष्टवान्, अतः सः भेदः अस्ति. अन्यः गां यदा सः पश्यति तदा सः चिन्तयति इति, एतदहं पूर्वमेव दृष्टवान् अतः एतदपि गौः इति. यदा अहं अत्र तत्र भ्रमः न भवति, यदा दूरे अस्ति अत्र किमपि अस्ति तत्र गौः इव भाति, परन्तु तथा तत्तु गौः न भवितुम् अर्हति. तत्र मम प्रश्नः.
तत्तु तत् ज्ञानस्य विषयः, अग्रे आगच्छति, यथार्थज्ञानम् अयथार्थज्ञानम् इति.
अस्तु, धन्यवादः भगिनि.
हा, परन्तु किमपि दृष्ट्वा एव अस्मिन् नीलत्वमस्ति, रूपत्वमस्ति इति अवगन्तुं शक्यते. अस्तु अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः सर्वेषां.
धन्यवादः भगिनि.